इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको नरेन्द्रदत्तः सेमवालः अथ वार्ताः प्रधानमन्त्री नरेन्द्रमोदी अद्य गुजरातस्य दमनक्षेत्रस्य भ्रमणं करिष्यति सः सूरतनगरे राजमार्गस्य विद्युदुत्पादन प्रकल्पस्य औद्यमिक क्षेत्रस्य च कृते अष्टशताधिक अष्टादश सहस्र कोटि रूप्यकाणां बहुविध विकास परियोजनानां समर्पणं शिलान्यासं च करिष्यति श्रीमोदी सूरतनगरे द्विशतं शय्या युक्तं ईएसआईसी इति चिकित्सालयम् अपि उद्घाटयिष्यति यत् विशिष्ट क्षेत्रेष् आधुनिक माध्यमिक स्वास्थ्य सेवा प्रदास्यति प्रधानमन्त्री गुजरात सर्वकारस्य अनेकेषां महत्वपूर्णानां उपक्रमाणाम् उद्घाटनमपि करिष्यति येष् आधुनिक विद्युत वितरण उन्नयनम् उन्नत अपशिष्ट व्ययनम् पेट्रोलियम् चेत्यादीनि अन्तर्भवन्ति सायंकाले प्रधानमन्त्री मोदी दमननगरं गत्वा प्रायः सप्तत्यधिक नवशताधिक द्विसहस्र कोटि रूप्यकाणां विकास परियोजनानां शिलान्यासं करिष्यति एतासु परियोजनास् स्वास्थ्यसेवा नागरिक विमानयानम् पर्यटनम् अवसंरचना सम्पर्कः जनकल्याणम् इत्यादीनि विविध क्षेत्राणि सम्मिलितानि सन्ति प्रधानमन्त्री नमो विमानस्थानकस्य नमो चिकित्सालयस्य च नूतन भवन सहितं प्रायः चत्वारिंशदुत्तर त्रिशताधिक एकसहस्र कोटि रूप्यकाणां परियोजनानां उद्घाटनं सम्पर्कं च अपि करिष्यति नूतन विमानस्थानक टर्मिनल इत्यनेन क्षेत्रीय वायुसम्पर्कः महत्वपूर्णरूपेण वर्धिष्यति अपि च अस्य प्रदेशस्य आर्थिक वृद्धि च सुकरा भविष्यति भारतीय रिजर्व बैंक इत्येतत् द्वैमासिक्याः मौद्रिक नीत्याः घोषणां करिष्यति आरबीआई इत्यस्य प्रमुखः संजय मल्होत्रा अद्य प्रातः मौद्रिक नीति समित्या कृतानां निर्णयानां उद्घोषणं करिष्यति एसबीआई रिसर्च रिपोर्ट इत्यस्य अनुसारं वर्धमान मुद्रास्फीतिः क्रूड मूल्यानि अवमूल्यन रूप्यकाणि संभाव्य दुर्बलं वर्षाकालम् इत्यादीनां समस्यानां निवारणार्थं रेपो इत्यस्य मितौ वृद्धि समुचितोपायः न भविष्यति तद्विहाय आरबीआई अल्पकालिक लाभांश मिति साधनानि द्रव्यता उपायाञ्च उपयुज्य विपण्याः विकृति परिहर्तुं वित्तीय स्थिरतां च समर्थयितुं शक्नोति एसबीआई इत्यनेन संसूचितं यत् भारतं सापेक्षक रूपेण प्रबलं समष्टि आर्थिक मूल्यं निरन्तरम् अनुभवति तथा च वर्तमान मुद्रास्फीति प्रतिसन्धि बहुधा बाह्य कारणानां विशेषतः पश्चिम एशियायाः भू राजनैतिक समस्यया अशोधित मूल्यानां वर्धनेन च प्रेरिता अस्ति लोकसभायाः पूर्व महासचिवः संवैधानिक विशेषज्ञः च सुभाष सी कश्यपः दीर्घकालं यावत् अस्वस्थतायाः अनन्तरं गतदिने राजधान्यां नवदिल्ल्यां निधनम् उपगतः असौ सप्तनवति वर्षीयः आसीत् एकम राष्ट्रम् एक निर्वाचनम् इति विधे निर्माणाय संघटितायाः उच्चस्तरीय समित्याः सदस्यः अपि आसीत् डॉ कश्यपः अधिक पुस्तकानां लेखकः सः गतशताब्दस्य त्र्यशीति तमाब्दात् नवतिः तम शताब्दं यावत् लोकसभायाः महासचिवरूपेण कार्यं कृतवान् प्रवर्तन निदेशालयेन मिजोरम राज्यस्य चम्पाई क्षेत्रे नव परिसरेष् अन्वेषणं कृतम् एतदन्वेषणं धनशोधन सम्बद्धस्य प्रकरणस्य सन्दर्भे वर्तते यत्र सप्तत्यधिक नवशत कोटि रूप्यकाणां अपराधस्य आयः सम्मिलितः अस्ति प्रवर्तन निदेशालयेन उक्तं यत् अन्वेषणेन ज्ञातं यत् बरवा देशस्य नागरिकाः जोखावथर चम्पाई नगरयोः माध्यमेन सीमा शुल्कं विना तीआउ नद्याः पारं भारते शुष्कवृक्षाणां तस्करणं विधाय सीमायां स्थानीय सुगमकर्ताभ्य च वस्तुवाहनानि समर्पयन्ति स्म विदेशमन्त्री डॉ जयशंकरः यः नवदिल्ल्यां वेनेजुएला देशस्य कार्यवाहक राष्ट्रपतिना डेल्सी रोड्रीज इत्यनेन सह अमिलत् द्वावेव नेतारौ भारत वेनेजुएला देशयो संबंध विषये चर्चां कृतवन्तौ ऊर्जा व्यापार निवेश स्वास्थ्य सेवा वाहन च इत्यादीनि क्षेत्राणि अधिकृत्य सहयोगं वर्धयितुं नूतनान् अवसरान् च अन्विष्यताम्